अभाम रथो अश्विनाशेन पत्वा समृलेकस्वयात्वर्वाङ् यो मर्त्यस्य मनसो जवीजान् त्रिबन्धुरो वृषढावातरम् हाः त्रिबन्धुरेण त्रिव्रता रथेन त्रिचक्रेण सुव्रता जातमर्वाक् पिन्वतङ्गाजिन्वतमर्वतो नो भर्धयतमश्विना वीरमस्मे प्रवद्यामना सुव्रता रथेन दस्रा विमं शृणुतं श्लोकमद्रेः किमङ्गवाम् प्रत्यवर्त्यङ्गमिष्ठाहुरविप्रासो अश्विना पुराजाः आवाम् श्येनासो अश्विनावहम् तुरथे युक्ता स आशवः पतङ्गाः ये अप्तुरो दिव्यासो न गृध्रा अभिप्रयो न सत्यावहन्ति आभाम् रथैयुपतिस्तिष्ठदत्र जुष्ट्वेन रादुहिता सूर्यस्य परिभामश्वावपुषः पतङ्गावयो वहन्वरुषा अभीके उद्वन्दनमैरतम् दंसनाभिरुद्रे बन्धस्रावृषणाशचीभिः निष्टौग्र्यम् वा रजथः समुद्रात् पुनश्च वा नम् चक्रधुर्युवानम् युवमत्रजेव नीताय तप्तमोर्जमो मानमश्विना वधत्तम् युवम् कण्वायापि रिप्ताय चक्षुः प्रत्यधत्तम् सुष्ठुतिम् जुजुषाणा युवम् धेनुम् शजवेनाधितायापिन्वदमश्विना पूर्व्याय अमुञ्चतम् वर्तिकामम् हसो निः प्रतिजङ्घम् विश्पलाय अधत्तम् युवम् श्वेतम् वेदभ इन्द्रज्योतमहिहनमश्विना दत्तमश्वम् जोहोत्र मर्यो अभिभूतिमुग्रम् सहस्रसाम् वृषणम् वीड्वङ्गम् तावान्नरास्वसे सुजाता हवामहे अश्विनानाधमानाः आन उपवसुमता रथेन गिरो जुषाणा सुपिता जजातम् आश्येनस्य जवसा नूतनेनास्मे जातन्ना सत्या सजोषाः हवे हि वामश्विना रातहौ यश्यश्वत्तमाया उषसोऽव्यष्टौ